ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। सूत उवाच, संस्थितो भगवान् इत्थं मार्कण्डेयेन धीमता, नारायणो नरसखः प्रीत आह भृगुद्वहम्। श्रीभगवानुवाच, भोवो ब्रह्मर्षिवर्यासि सिद्धात्मसमाधिना, मयि भक्त्या न पायिन्या तपः स्वाध्याय संयमैः। वयं ते परितुष्टास्म त्वद्बृहद्व्रतचर्यया, वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम्। ऋषिरुवाच, जितं ते देवदेवेश प्रपन्नार्तिहराच्युत, वरेणैतावतालन्नो यद्भवान् समदृश्यत। गृहीत्वा जादयो यस्य श्रीमत्पादाब्जदर्शनम्, मनसा योगपक्वेन स भवान् मेक्षगोचरः। अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे, द्रक्ष्ये मायां यया लोकः सपालो वेदसद्भिदाम्। सूत उवाच, इति ऋतोर्चितः काममृषिणा भगवान् मुने, तथेति सस्मयन् प्रागाद्बदर्याश्रममीश्वरः। तमेव चिन्तयन्नर्थ मृषिः स्वाश्रम एव सः, वसन्नग्न्यर्कसोमाम्बु भूवायुवियदात्मसु। ध्यायन् सर्वत्र च हरिम् भावद्रव्यैरपूजयत्, क्वचित् पूजां विसस्मार प्रेमप्रसर सम्प्लुतः। तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रा तटे मुनेः, उपाधीनस्य सन्ध्यायां ब्रह्मन् वायुरभून् महान्। तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः, अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधारा। ततो व्यदृश्यन्त चतुः समुद्रा समन्ततक्ष्मातलमाग्रसन्तः, समीरवेगोर्मिभिरुग्रनक्र महाभयावर्तगभीरघोषाः। अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः शतर्रदाभिरुपतापितं जगत्। चतुर्विधं वीक्ष्य सहात्मना मुनिर्जलाप्लुतां क्ष्मां विमना समत्र सत्। तस्यैव मुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघोर्णितवार्महार्णवः, आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यथाद्वीपवर्षाद्रिभिः समम्। सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम्। स एक एवोर्वरितो महामुनिर्बभ्रामविक्षिप्य जटा जडान्धवत्। क्षुत्रित्परीतो मकरैश्चिमिङ्गिलैः रूपद्रुतो वीचि नभस्वता हतः, तमस्य पारे पतितो भ्रमन्दिशो न वेदखं गां च परिश्रमेशितः। क्वचित् गतो महावर्ते तरलैश्चादितः, क्वचित् यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः। क्वचित् शोकं क्वचिन्मोहं क्वचित् दुःखं सुखं भयम्, क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्जितः। अयुतायुतवर्षाणां सहस्राणि शतानि च व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मनः। स कदाचित् भ्रमंस्तस्मिन् पृथिव्या गगुदिद्विजः, न्यग्रोधपोतं ददृशे फलपल्लवशोभितम्। प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुं, शयानं पर्णपुटके ग्रसन्तं प्रभयातमः। महामरकतश्यामं श्रीमद्वदनपङ्कजं, कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवं, श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिबं, विद्रुमाधरभासे सच्छोणायितसुधास्मितं, पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनं, श्वासैजद्बलिसंविघ्न निम्ननाभिदलोदरं, चार्वङ्गुलिभ्यां पाणिभ्यां मुन्नीय चरणाम्बुजं, मुखे निधाय विप्रेन्द्रोधयन्तं वीक्ष्य विस्मितः। तद्दर्शनात् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः, प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम्। तावच्छिशोर्वै श्वसितेन भार्गवः, सोऽन्तः शरीरं मशको यथा विशत्। तत्राप्यदोन्यस्तमचश्च कृत्स्नशो यथा पुरा मुह्यदतीव विस्मितः। खं रोदसी भगणान् त्रिसागरान्, द्वीपान् सवर्षान् ककुपः सुरासुरान्, वनानि देशान् सरितः पुराकरान्, खेटान् व्रजानाश्रमवर्णवृत्तयः। महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुग कल्पकल्पनम् यत्किञ्चिदन्यत् व्यवहार कारणम् तदर्श विश्वं सदिवावभासितम् हिमालयं पुष्पवहां च तां नदीं निजाश्रमं तत्र ऋषीन पश्यत् विश्वं विपश्यन् श्वसिताच्छिशोर्वै बहिर्निरस्तोऽन्यपतल्लयाब्धौ तस्मिन् पृथिव्या ककुति प्ररूढम् वटं च तत्पर्णपुटे शयानम् तोकं च तत्प्रेम सुधास्मितेन निरीक्षितोपाङ्ग निरीक्षणेन अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि अभ्ययादति संक्लिष्टः परिष्वक्तुमधोक्सजम् तावत् स भगवान् साक्षात् योगाधीशो गुहाशयः अन्तर्दध ऋषे सद्यो यथेहानीश निर्मिता तमन्वथ वटो ब्रह्मन् सलिलं लोकसंप्लवः तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत् स्थितः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादशस्कन्धे मायादर्शनम् नाम नवमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।